एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। चीन देशस्य राज्य परिषदः सदस्यः विदेशमन्त्री च वाङ्गी नेपालस्य त्रिदिवसीयं भ्रमणं प्रपूर्य गतदिने स्वदेशं प्रातिष्ठत। विदेशमन्त्रिणे वाङ इत्यभिधेयाय त्रिभुवनान्तर्राष्ट्रिय विमानस्थले परराष्ट्र सचिव भरत राज पौड्याल नेपालस्य कृते चीनदेशस्य राजदूत हाउयान्छी अन्य उच्चाधिकारिणश्च प्रास्थानिकाभिवादनम् अर्पयन्। तत्पूर्वं राष्ट्रपतिना विद्यादेवी भण्डारिणा सह चीनदेशस्य राज्य परिषद सदस्येन विदेशमन्त्रिणा च वाङ इत्यनेन शिष्टाचार मेलनं विहितम् आसीत्। मेलनावसरे अनयोर्मध्ये युगै प्राचीनस्य नेपाल चीन मैत्री सम्बन्धस्य विषये विमृष्टम् आसीत्। गतदिने एव विदेशमन्त्रिणा वाङ इत्यनेन नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च सह पृथक पृथक मेलवार्ता विहिता आसीत। मेलने द्वयोरेव दलयोः शीर्ष नेतारौ बीआरआई परियोजनायाः अन्तर्गताभ्यः आयोजनाभ्यः निरन्तरतां दातुं शीघ्रातिशीघ्रं इमाः आयोजनाः क्रियान्वेतुं च चीन सर्वकारम् अनुरुद्धवन्तौ। चीनदेशेन नेपालाय एकादशाब्जेभ्यः चत्वारिंशतः कोटिभ्यश्च अधिकानां रूप्यकाणाम् अनुदान सहयोगः प्रदास्यते। आर्थिक प्राविधिक सहयोगस्य अन्तर्गतं प्राप्स्यमानम् अनुदान वित्तमेतत् देशद्वयस्यैव सहमत्या निर्धारितानां परियोजनानां क्रियान्वयनाय व्ययीकरिष्यते इति अर्थमन्त्रालयो ज्ञापयति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमिते ह्या उपविष्टे उपवेशे केन्द्रीय सदस्यानां धारणोपस्थापनस्य क्रमः अविच्छिन्नम् अचलत्। दलसभापतेः शेरबहादुर देवाभिधस्य सभापतित्वे सानेपा वर्तिनी दल कार्यालये उपविष्टे उपवेशे केन्द्रीय सदस्यैः स्थानीय स्तराणां निर्वाचने गठबन्धनस्य विषये मिश्रित धारणा व्यक्त्यति केन्द्रीय सदस्यः पूर्वमन्त्री च गोविन्द भट्टराई अज्ञापयत्। दलस्य केन्द्रीय कार्यसमितेः उपवेश अद्य दिवा सार्धैकादशवादने पुनर्वसतीति कांग्रेस दलेन ज्ञापितं वर्तते। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली निर्वाचनायोगस्य क्रियाकलापाः सत्तापक्षाय लाभप्रदायकाः सन्तीति आरोपयति। काष्ठमण्डपस्य महाराजगंजस्थाने प्रारब्धे नेकपा एमाले दलस्य स्थायी समितेः उपवेशे अध्यक्षः ओली अवदत् मतपत्रस्य रंग परिवर्तनम् प्रत्याशिता पंजीकरणाय द्वयोर्दिनयोः निर्धारणम् एमाले दलात् निष्कासितेभ्य जनेभ्य दलस्य मान्यता प्रदानम् चेति क्रियाकलापाः एमाले दलम् न स्वीकरोति। केन्द्रीय समिते उपवेशेन निर्वाचन केन्द्रितं विषयवस्तु विमृश्य कार्ययोजना निर्धार्यते इति केन्द्रीय प्रचार विभागोपप्रमुखः विष्णु रिजालः अज्ञापयत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः वदति राष्ट्रे समानता सामाजिक न्याय विकास समृद्धिनां प्राप्तिः दलस्य लक्ष्यं वर्तते। समाजवादी प्रेस संगठन नेपालस्य प्रथमे विस्तारिते उपवेशे इह अध्यक्षो नेपालः संचारकर्मिभिः सत्यमन्विष्य तथ्यान् उद्घाटयितव्यम् इत्यत्र बलम् अदात्। अध्यक्षो नेपालः राष्ट्रस्य धनसञ्चयं विधाय आत्मनिर्भरार्थतन्त्रस्य विकासाय कृष्युद्योग पर्यटनैः सह पूर्वाधाराणां क्षेत्रे निवेशयितुमपि बलम् अदात्। आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणां निर्वाचनाय एक कोटिः सप्तसप्ततिर्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रयोविंशत्यधिक सप्तशतञ्च मतदातारोः निर्धारिताः सन्ति। निर्वाचनायोगस्य गतदिवसीयोपवेशेन ऊननवतिर्लक्षाणि द्वानवतिः सहस्राणि दश च पुरूषाः सप्ताशीतिर्लक्षाणि एकचत्वारिंशत् सहस्राणि त्रिंशदुत्तर पञ्चशतञ्च महिलाः अन्य त्र्यशीत्यधिक शतं च मतदातारोः निर्धारिता इति निर्वाचनायोगस्य सहायक प्रवक्ता सूर्यप्रसाद अर्यालः अज्ञापयत्। आयोगस्य अनुसारेण सर्वाधिक मतदातारः सप्तलक्षाणि पञ्चदश सहस्राणि त्रयोविंशत्यधिक शतद्वयं च मोरङ्ग जनपदे सन्ति। न्यूनतम मतदातारः षट्सहस्राणि षोडशाधिक चतुश्शतं च मनाङ जनपदे वर्तन्ते। अधिक मतदातृयुतेषु जनपदेषु मोरङ झापा काष्ठमण्डपाः सन्ति। एवमेव मनाङ मुस्ताङ डोल्पा जनपदेषु न्यूनसंख्यकाः मतदातारो वर्तन्ते। मतदातृनामावल्यां समाविष्टाः आगामिनो वैशाख मासस्य ऊनत्रिंशे दिवसे प्राप्ताष्टदश वर्षाश्च मतदातारो मतदानं कर्तुं शक्नुवन्तीति ऐषमवारं व्यवस्था विहिता वर्तते। निर्वाचनाय दश सहस्राणि षट् पञ्चाशदधिक सप्तशतं मतदान स्थलानि एकविंशति सहस्राणि पञ्चपञ्चाशदधिकनवशतञ्च मतदान केन्द्राणि निर्धारितानि सन्तीति आयोगस्य सहायक प्रवक्ता अरियालः असूचयत्। निर्वाचन आयोगेन अप्राप्त राष्ट्रिय मान्यतेभ्य दलेभ्य स्थानीय स्तराणाम् आगामिनो निर्वाचनस्य प्रयोजनाय दलानाम् निर्वाचन चिह्नानि प्रदातुम् निर्णीतमस्ति। आयोगस्य उपवेशेन स्वसंरचनायुतेभ्य प्राप्त विवरणेभ्यश्च दलेभ्य सम्बद्ध दलानामेव निर्वाचन चिह्नानि प्रदातुम् निर्णीतमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः ज्ञापयत। इतः परम् दलानाम् जनपद स्तरीयम् विवरणम् निर्माय मतपत्रस्य स्वरूप निर्माणाय अग्रे बध्यते इति आयोगेन ज्ञापितं वर्तते। निर्वाचन आयोगेन आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमाने निर्वाचने पर्यवेक्षणाय इच्छुकाः राष्ट्रिय संघ संस्थाः निवेदनं दातुम् आहूताः सन्ति। निर्वाचनस्य क्षेत्रे प्राप्तानुभव विज्ञता दक्षता प्रतिष्ठानां राष्ट्रिय संघ संस्थानां व्यक्तिनां च कृते निर्वाचनस्य पर्यवेक्षणाय निवेदनं दातुम् आयोगेन इह पञ्चदश दिवसीया सूचना सार्वजनिकृता वर्तते। पर्यवेक्षणाय प्राप्तानुमतिभिः संघ संस्थाभिः व्यक्तिभिश्च निर्वाचन समाप्तेः पञ्चदश दिनानाम् अभ्यन्तरे प्रारम्भिकं प्रतिवेदनं कार्यसमाप्तेः त्रिंशतो दिनानाम् अभ्यन्तरे आयोगस्य समक्षम् अन्तिम प्रतिवेदनं च प्रस्तुतव्ये भवतः। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति महिला हिंसां बालिका हिंसां च सामाजिक समस्यायाः रूपेण मत्वा एतासां समाधानाय सर्वैः मिलित्वा कार्यं कर्तव्यम्। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये जोन्टा क्लब अन्तर्राष्ट्रिय संस्थायाः प्रतिनिधिभि सह यो विहितायां मेलवार्तायां राष्ट्रपति भण्डारी देशे महिला हिंसायाः बालिका हिंसायाश्च घटनाः अधुनापि जायमानाः सन्तीति हेतोः एतासां न्यूनीकरणाय इदानीमपि अतिरिक्त जागरणस्य आवश्यकतां न्यस्तिनोत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति देश विकासाय धनं सञ्चेतुं सर्वकारः केन्द्रितो वर्तते। सुनसरी जनपदस्य कोशी ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी हरिपुरे ह्य आयोजिते कार्यक्रमे मन्त्री कार्की अगदत् देशस्य विकासाय समृद्धये च धनसञ्चयनार्थं सर्वकारः सक्रियो वर्तते। एतदनुरूपमेव एमसीसी परियोजना संघीय संसदा पारितीकृताश्चास्ति। एमसीसी परियोजना राष्ट्रस्य हिताय अस्तीति हेतोः कमपि भ्रमं न धर्तुं मन्त्री कार्की सर्वान् अन्वरुणत्। विधि न्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बडु लोकतन्त्रम् विधि शासित राज्यम् सांविधानिक सर्वोच्चताम् च संरक्ष्य विशेष परिस्थितौ निर्मितस्य वर्तमान सर्वकारस्य दायित्वपूरणत्वेन कार्याणि सम्पादयितुम् कर्मचारिणो निर्दिशति। न्यायसेवायाः अन्तर्गतम् नवप्रविष्टानाम् अधिकृतानाम् प्रशिक्षण कार्यक्रमस्य समापन समारोहे ह्यो मन्त्री बडु संविधानस्य रक्षायै निर्मितस्य सर्वकारस्य सफलतायै विदेश शासनाय प्रतिबद्धः भवितुम् कर्मचारिणोन्वरुणत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति लोकतन्त्रोपरि अनेकानि षड्यन्त्राणि जायमानानि सन्तीति हेतोः अधुनापि लोकतन्त्रम् सुदृढम् सुनिश्चितम् च सम्भूतम् नास्ति। नेपाली कांग्रेस दलस्य नेतुः पूर्वमन्त्रिणश्च नवीन्द्र राज जोशिनः प्रथम स्मृति दिवसस्य अवसरे प्रकाशितं नवीन्द्र राज जोशिनः व्यक्तित्वस्य योगदानस्य च प्रकाशकं पुस्तकं ह्यो लोकार्पयन् नेता पौडेलः अगदत् लोकतन्त्रं प्रति प्रतिबद्धां निष्ठावतीं च शक्तिं दुर्बलीकर्तुं कार्यं विधीयमानं वर्तते।